एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। विजयादशमी पर्वणः अन्तर्गतम् अद्य नवरात्रस्य फूलपाती नाम्ना प्रसिद्धायां सप्तम्यां तिथौ देशस्य सर्वेषु शक्तिपीठेषु देवी मन्दिरेषु च देव्यः दर्शन पूजनार्थं प्रातः कालादेव भक्तजनानां विपुलः सम्मर्दः दृश्यते। अद्य अन्याभिः देवीभिस्सह विशेषेण कालरात्रि देवी प्रपूज्यते। अष्टवर्षीयायाः कन्यायाः सरस्वत्याश्च विशेष पूजनम् अद्यतनं प्रातः कालिकं कृत्यमस्ति। दिनशेषावसरे देव्यः प्रीतये विल्वशाखाः धान्य कचु कदली दाडिमी जयन्ती हरिद्रा मानक अशोकाश्चेति नवपत्रिकाः समर्प्यन्ते। एताः पत्रिकाः ग्रामवासीभिः नगरवासीभिश्च दोलायां संस्थाप्य वाद्यघोष पुरस्सरं देवी मन्दिरेषु नीयन्ते, स्वस्व पूजागृहेषु संस्थाप्यन्ते च। परम्परायाः अनुसारेण गोरखा प्रासादस्य दशमी गृहाद् आनीताः नवपत्रिकाः अद्यैव हनुमद्वारवर्तिनी दशमी गृहे प्रवेश्यन्ते। इमाः नवपत्रिकाः गोरखास्थानात् धादिङ जनपदस्य जीवनपुरं यावत् दशमी गृहस्य पूजकेन सहितै मगरजातेः षड्भिः पूजकैः, ततः जमलस्थानं यावत् काष्ठमण्डपात् गतैः पूजकैः दोलायाम् ऊढ्वा आनीयन्ते। हनुमद्वारात् सहर्षं सोल्लासं च गता नवपत्रिका यात्रा जमलस्थाने संस्थापिताः इमाः नवपत्रिकाः हनुमद्वारवर्ति दशमी गृहम् आनयति। नवपत्रिकाः वाद्यवृन्दं गुरु सैनिकः पञ्चवाद्येन विभूषितः कलशवाहिन्यः कन्याः राज्य चिह्न सहितः समूह सांस्कृतिक नृत्य गायन समूह सर्वकारीय कर्मचारिणः सैनिकः प्रहरिणश्च सम्मिलन्ति। नेपाली सेनया अद्य टुडी खेलस्थाने आयोजितस्य वर्धापन समारोहस्य समापनम् अनु जमलस्थाने संस्थापिताः नवपत्रिकाः हनुमद्वारवर्तिनी दशमी गृहे प्रवेश्यन्ते। नवपत्रिका वर्धापनस्य अवलोकनम् अनु राष्ट्रप्रमुखेण हनुमद्वारे नवपत्रिकाणां दर्शनस्य परम्परा वर्तते। गत भाद्रमासस्य त्रयोविंशे चतुर्विंशे च दिवसे जेन्जी यूनां समूहस्य आन्दोलनस्य क्रमे सम्भूतानां घटनानां विषयम् अनुसन्धातुं संघटितेन आयोगेन पूर्व प्रधानमन्त्रिणा केपी शर्मा ओलिना सहितानां पञ्चानां जनानां विदेश भ्रमणे प्रतिबन्धं विधातुं परामर्शनाय निर्णीतमस्ति। आयोगस्य ह्य उपविष्टेन उपवेशेन पूर्व प्रधानमन्त्रिणा ओलिना तात्कालिकेन गृहमन्त्रिणा रमेश लेखकेन च सहितानां पूर्व गृह सचिवस्य गोकर्णमणि दुवाडी इत्यस्य, तात्कालिक राष्ट्रियानुसन्धान प्रमुखस्य हुतराज थापा इत्यस्य, काष्ठमण्डप उपत्यकायाः पूर्व प्रमुख जनपदाधिकारिणः छविलाल रिजाल इत्यस्य च विदेश गमनाय निषेधं विधातुं परामृष्टमस्तीति आयोगस्य सदस्येन विज्ञान राज शर्मणा प्रकाशितायां विज्ञप्तौ उल्लिखितमस्ति। एते जनाः अनुसन्धानस्य सीमनि सन्ति, त्यतः एतेषां विदेशभ्रमणम् अवरोद्धुं निर्णीय कस्मिंश्चित् अपि समये आयोगे एतैः जनैः उपस्थातव्यं भवति, त्यतः आयोगस्य स्वीकृतिं विना काष्ठमण्डप उपत्यकातः बहिर्गमनं निषेद्धुं सम्बद्धे निकाये पत्राचाराय निर्णीतमस्तीति विज्ञप्तौ उल्लिखितं वर्तते। सर्वकारेण जेन्जी यूनां समूहस्य प्रदर्शनस्य क्रमे आहतानां जनानां परिचयस्य सहजतया उपचारस्य च कृते परिचय पत्र वितरणाय निर्णयः विहितोऽस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये ह्य उपविष्टस्य मन्त्री परिषदः उपवेशस्य निर्णयान् सार्वजनिकुर्वन् संचार सूचना प्रविधि मन्त्री जगदीश खरेलः जेन्जी यूनां समूहस्य प्रदर्शनस्य क्रमे आहतेभ्यः जनेभ्यः परिचय पत्रं प्रदातुं, स्वास्थ्योपचारस्य कृते चिकित्सालयान् निश्चेतुं, जेन्जी स्वास्थ्य सेवां संचालयितुं च निर्णीतमस्तीति असूचयत्। मन्त्री खरेलः उपवेशेन प्रधानमन्त्रिणः सुशीला कार्कीणः प्रमुख परामर्शदातृपदे, अजय भद्रखनालम् जनसम्पर्क परामर्शदातृपदे च गोविन्द नारायण तिमिलसेना इत्यमुं च नियोक्तुं निर्णीतमस्तीति अज्ञापयत्। एवमेव मन्त्री परिषद उपवेशेन कार्तिक मासस्य दशमदिवसात् त्रयोविंशं दिवसं यावत् भारतस्य नवदेहली स्थाने आयोक्ष्यमाणे अन्तर्राष्ट्रिय सौर्य गठबन्धनस्य अष्टमे उपवेशे सहभागितायै ऊर्जा जलस्रोत सेचन मन्त्रिणे कुलमान घिसिङ इत्यस्मै स्वीकृति प्रदत्ता अस्ति इति मन्त्री खरेल असूचयत्। नेकपा एमाले दलस्य सचिवालय उपवेशः सम्पन्नोऽस्ति। दलाध्यक्षस्य केपी शर्मा ओलिनः अध्यक्षतायां पूर्वेद्युः भक्तपुरवर्तिनी अध्यक्षस्य निवासे उपविष्टेन दलस्य सचिवालय उपवेशेन वर्तमान सर्वकारेण राजनीतिक प्रतिशोधस्य धरणेन अग्रे न वर्धनीयमिति निष्कर्षः प्रकाशितोऽस्तीति दलस्य उपमहासचिवः प्रदीप गेवाली असूचयत्। उपवेशस्य निर्णयान् संचारकर्मिणः ज्ञापयन् उपमहासचिवः गेवाली अवोचत् राजनीतिक दलैस्सह वर्तमान सर्वकारेण कथं विधमपि समन्वयं न विधाय निषेधः विधीयमानोऽस्तीति निश्चितं वर्तते। एवमेव उपवेशेन दलाध्यक्षेण पूर्व प्रधानमन्त्रिणा च ओलिना सहितानां पञ्चानां नेतृणां सन्दर्भे काष्ठमण्डपात् बहिः स्वदेशे अथ च विदेशे गन्तुं निषेधस्य सर्वकारस्य निर्णयं प्रति आपत्तिः प्रकटिता अस्ति इति उपमहासचिवः गेवाली अज्ञापयत्। इति समाचारः।